भारतीय नारी धर्माभिमुख, भक्तिभाव सबर, व्रत व्रतादि करनारी अने सदाय कुटुंबनो कल्याण इच्छती होय छे। वर्षो पूर्वे व्रतोनो जे महिमा हतो ते पलटाता समये विसराई गयो छे। श्रद्धाळु नरनारी माटे जया पार्वती नुं व्रत अने तेनी कथा शास्त्रोक्त रीते लोक लाभार्थे रजू करी रह्या छे। सुरसागर यूके। आ व्रतनो आरंभ अषाढ सुद तेरसना दिवसे थाय छे अने अषाढवद ત્રીજના દિવસે વ્રત પૂર્ણ થાય છે। છેલ્લા દિવસે જાગરણ કરવાનું હોય છે। વ્રતના દિવસો દરમિયાન રોજ એકટાણું કરવાનું હોય છે। આ વ્રત કરવાથી સંતાન, સૌભાગ્ય અને સુખની પ્રાપ્તિ થાય છે।
જયા પાર્વતી વ્રત માટે જરૂરી સામગ્રી। કુલ 5 દિવસની વિધિ માટે અબીલ, ગુલાલ, કંકુ, કેસર તેમજ ફૂલ, ફળ, સુપારી, કમળ કાકડી, નાગરવેલનું પાન રોજનો એક પૂજાના ઉપયોગમાં લેવું। માતાજીને અર્પણ કરવા માટે કાચું દૂધ તેમજ પાણીનો કળશ સાથે લેજો। વ્રતના ઉજવણા નિમિત્તે માતાજીને ધોતિયું અર્પણ કરવું તેમજ મા પાર્વતીજીને માટે સાડી, ચણિયો, બ્લાઉઝ, દાગીના, સૌભાગ્યની નિશાની રૂપે ચાંદલા, કંકુ, બંગડી।
જયા પાર્વતીનું ષોડશોપચાર પૂજન કરવા માટે આ પ્રમાણે સામગ્રી તૈયાર કરવી। સ્થાપન માટે લાલ રંગના વસ્ત્રનો એક કટકો, સફેદ રંગના વસ્ત્રનો એક કટકો, ઘઉં, ચોખા, ગોળ, ઘી, કંકુ, અબીલ, ગુલાલ, સિંદૂર, ચંદન, હળદર, નાળાછડી, શ્રીફળ, સોપારી, પાન, ફૂલ, ફૂલનો હાર, ધૂપ, દીપ, નૈવેદ્ય, પંચામૃત। શુભ દિવસે મંગલ સ્નાન કરી પાટલા પર રેશમી કે ઊનના આસન પાથરી ઈષ્ટદેવનું સ્મરણ કરી પૂર્વાભિમુખે અથવા ઉત્તરાભિમુખે યજમાને બેસવું, પૂજાનો પ્રારંભ કરવો। જમણા હાથમાં પાણી લઈ 3 વાર આચમન કરવું। રીમ કેશવાય નમઃ, રીમ નારાયણાય નમઃ, રીમ માધવાય નમઃ। હવે હાથ ધોઈ નાખો। રીમ ગોવિંદાય નમઃ, રીમ નમો ભગવતે વાસુદેવાય। આ પ્રમાણે 3 વખત બોલી પ્રાણાયામ કરવો। યથા પર્વત ધાતુનામ દોષમ હરતિ પાવકઃ, એવમ અંતર્ગતમ પાપમ પ્રાણાયામેન દહ્યતે। હવે કપાળમાં સ્વસ્તિ તિલક કરવું, કંકુનો ચાંદલો કે કેસરની અર્ચા કરવી।
સ્વસ્તિ ન ઇન્દ્રો વૃધશ્રવાઃ, સ્વસ્તિ ના ભૂખા વિશ્વવેદાઃ, સ્વસ્તિ નસ્તાર્ક્ષ્યો અરિષ્ટનેમિ, સ્વસ્તિ નો બૃહસ્પતિર્દધાતુ, સ્વસ્તિસ્તુ યા વિનાશાખ્ય પુણ્યકલ્યાણ વૃદ્ધિદા, વિનાયક પ્રિયા નિત્યમ ત્યાં ચ સ્વસ્તિમ બ્રુવંતુ નઃ। મંત્રાર્થાઃ સફલા સંતુ, સંતુ પૂર્ણા મનોરથઃ, શત્રુણાં બુદ્ધિનાશોસ્તુ, મિત્રાણાં ઉદયસ્તવ।
જમણા હાથે નાડાછડીનો ટુકડો બાંધવો, રક્ષાસૂત્ર બાંધવું।
યાવદ ભૂમંડલમ ધત્તે સશૈલવનકાનનમ, તાવત તિષ્ઠતિ મેદિન્યામ સંતતિહિ પુત્રપૌત્રિકી। યેન બદ્ધો બલી રાજા દાનવેન્દ્રો મહાબલઃ, તેન ત્વામ અભિબધ્નામિ રક્ષેત માચલમાચલઃ, નારદાદ્યા ઋષિગણાઃ યે ચાન્યે ચ તપોદના, ભવંતુ યજમાનસ્ય આશીર્વાદ પરાયણઃ।
અથ શાંતિપાઠઃ।
ॐ द्यौः शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्तिरावः शान्ति रोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॐ विश्वानि देव सवितदुरितानि परासुव यद्भद्रं तन्न आसुव शान्तिः 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 सुशान्तिर्भवतु देवता नमस्कारः ह्रीं श्रीमन्महागणाधिपतये नमः श्रीगुरुभ्यो नमः परमगुरुभ्यो नमः परमेष्ठीगुरुभ्यो नमः परात्परगुरुभ्यो नमः पाणिहिरण्यगर्भाभ्यां नमः लक्ष्मीनारायणाभ्यां नमः उमामहेश्वराभ्यां नमः शचीपुरन्दराभ्यां नमः मातापितृचरणकमलेभ्यो नमः कुलदेवताभ्यो नमः इष्टदेवताभ्यो नमः स्थानदेवताभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः एतत् कर्म प्रधानदेवता श्रीसत्यनारायणाय नमः पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तु ब्रुवन्तु पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तु ब्रुवन्तु सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्ननाशो विनायकः धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः द्वादशैतानि नामानि यः पठे शृणुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमेस्तथा सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं प्रसन्नावदनं ध्यायेत् सर्वविघ्नोपशान्तये अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरै सर्वविघ्नहरस्तस्मै गणाधिपतये नमः सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तु ते सर्वदा सर्वकार्येषु नास्ति तेषां मङ्गलं येषां हृदि स्थो भगवान् मङ्गलाय तनो हरि तदेव लग्नं सुदिनौ तदेव ताराबलं चन्द्रबलं तदेव विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः यत्र योगेश्वरकृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिर्ध्रुवा नीतिमतिर्मम सर्वेष्वारब्धकार्येषु त्रयस्त्रीभुवनेश्वराः देवा दिशन्तु नः सिद्धिं ब्रह्मेशा न जनार्दनः विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये
ध्यायेत् नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवरा भीतिहस्तं प्रसन्नं पद्मासीनं समन्तास्तुतममरगणैः व्याघ्रकृत्यं वसानौ विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पीतरौ वन्दे पार्वती परमेश्वरौ ॐ उमा महेश्वराभ्यां नमः ध्यानं समर्पयामि।
एह्ये हि गौरी शपिनाक पाणे शशांक मौले वृषभाधिरूढ़ देवाधिदेवेश वहे सनित्यं गृहाण पूजां भगवन् नमस्ते। ओम उमा महेश्वराभ्याम नमः। आवाहनम समर्पयामि। उमा महेश्वर नु आवाहन करवु। आसन विश्वात्मने नमस्तुभ्यं चिदंबर निवासिने रत्न सिंहासनम चारु ददामि करुणानिधे। ओम उमा महेश्वराभ्याम नमः। आसनार्थे पुष्पम समर्पयामि। उमा महेश्वर ने आसन माटे पुष्प अर्पण करवा। पाद्य नमः शर्वाय सोमाय सर्वमंगलहेतवे तुभ्यं संप्रददे पाद्यं श्री कैलास निवासिने। ओम उमा महेश्वराभ्याम नमः। पादयोः पाद्यं समर्पयामि। उमा महेश्वरना चरणमा जड़ अर्पण करवु। अर्घ्य अनर्घ फलदात्रे च शास्त्रे वैवस्वतस्य च तुभ्यम अर्घ्य प्रदास्यामि द्वादशांत निवासिने। ओम उमा महेश्वराभ्याम नमः। हस्तयोः अर्घ्यम समर्पयामि। उमा महेश्वरना हस्तमा अर्घ्य अर्पण करवो। अचमन अशेष जगदाधार निराधार महेश्वर तदाम्याचमनम तुभ्यं सुंदरेश नमोस्तुते। ओम उमा महेश्वराभ्याम नमः। आचमनीयम जलम समर्पयामि। उमा महेश्वरना हाथमा आचमन माटे जल अर्पण करू। स्नान गंगा क्लीन जटाभार सोम सोमार्ध शेखर नद्या मया समानीतै स्नानं कुरु महेश्वर। ओम उमा महेश्वराभ्याम नमः। स्नानीयम जलम समर्पयामि। स्नान माटे जल अर्पण करूं। मधुरम गोपयः पुण्यं पटभूतं निवेदितं स्नानार्थं पार्वतीनाथ गृहाण परमेश्वर। ओम उमा महेश्वराभ्याम नमः। पयः स्नानं समर्पयामि। पयः स्नानान्ते शुद्धोदक स्नानं समर्पयामि। उमा महेश्वर ने स्नान माटे दूध अर्पण करवू। दूध थी स्नान कराव्या बाद शुद्ध जल थी स्नान करावू। दधि स्नान दुर्लभम दिवि सुस्वादु दधि सर्व प्रियम शुभम पुष्टिदं पुष्टिकर्ता त्वं स्नानाय प्रतिगृह्यताम्। ओम उमा महेश्वराभ्याम नमः। दधि स्नानं समर्पयामि। दधि स्नानान्ते शुद्धोदक स्नानं समर्पयामि। उमा महेश्वरने दहीनु स्नान अर्पण करवु। दहीनु स्नान कराव्या बाद शुद्ध जलथी स्नान करावु। घृत स्नान घृतं गव्यं शुचि स्निग्धं सुसेव्यं सुखमिच्छताम् गृहाण गिरिजानाथ स्नानाय चंद्रशेखर। ओम उमा महेश्वराभ्याम नमः। घृत स्नानं समर्पयामि। घृत स्नानान्ते शुद्धोदक स्नानं समर्पयामि। उमा महेश्वर ने स्नान करवा माटे घी अर्पण करवो। घी थी स्नान कराव्या बाद शुद्धोदक थी स्नान करावो। मधु स्नान मधुरं मधु मोहग्नं स्वर भंग विनाशनम महादेवेद मुसृष्टं तव स्नानाय शंकर। ओम उमा महेश्वराभ्याम नमः। మధుస్నానం సమర్పయామి. మధుస్నానాందే శుద్ధోదక స్నానం సమర్పయామి. ఉమామహేశ్వరనే మధనું స్నాన કરાવું. મધનું સ્નાન કરાવ્યા બાદ પુનઃ શુદ્ધોદકથી સ્નાન કરાવો. શર્કરા સ્નાન.
તાપ શાંતિ કરી સીતા, સીતા સુસ્વાદુ સંયુતા. સ્નાનાર્થમ ચંદ્રમૌલીશ શર્કરેયમ પ્રદીયતે. ઓમ ઉમા મહેશ્વરાભ્યામ નમઃ. શર્કરા સ્નાનમ સમર્પયામિ.
ઉમા મહેશ્વરને સ્નાન માટે સાકર અર્પણ કરવી. સાકરનું સ્નાન કરાવ્યા બાદ પુનઃ શુદ્ધોદકનું સ્નાન કરાવવું.
પંચામૃત સ્નાન. પંચાસ્ય પંચભૂતેશ પંચકૃત્ય પરાયણ. પંચામૃતાદ્યૈ દ્રવ્યૈસ્ત્વાં સ્નાપયેહં સદાશિવ.
ઓમ ઉમા મહેશ્વરાભ્યાં નમઃ. પંચામૃત સ્નાનમ સમર્પયામિ. પંચામૃત સ્નાનાંતે શુદ્ધોદક સ્નાનમ સમર્પયામિ. ઉમા મહેશ્વરને પંચામૃતનું સ્નાન કરાવું. પંચામૃતનું સ્નાન કરાવ્યા બાદ પુનઃ શુદ્ધ જળથી સ્નાન કરાવું. ગંધોદક સ્નાન.
મલયાચલ સંભૂતમ ચંદનાગરુ સંભવમ ચંદનમ દેવદેવેશ સ્નાનાર્થમ પ્રતિગૃહ્યતામ.
ઓમ ઉમા મહેશ્વરાભ્યામ નમઃ.
ગંધોદક સ્નાનમ સમર્પયામિ. ગંધોદક સ્નાનાંતે શુદ્ધોદક સ્નાનમ સમર્પયામિ.
ઉમા મહેશ્વરને ગુલાબજળથી સ્નાન કરાવું. ગુલાબજળથી સ્નાન કરાવ્યા બાદ પુનઃ શુદ્ધ જળથી સ્નાન કરાવું.
નાના સુગંધિ દ્રવ્યાણી ચંદનમ રજનીયુતમ ઉદવર્તનમ મયા દત્તમ સ્નાનાર્થમ પ્રતિગૃહ્યતામ.
ઓમ ઉમા મહેશ્વરાભ્યામ નમઃ.
ઉદવર્તન સ્નાનમ સમર્પયામિ.
પુનઃ શુદ્ધોદક સ્નાનમ. ઉમા મહેશ્વરને ઉદવર્ત સ્નાન અર્પણ કરું છું. ઉદવર્ત સ્નાન કરાવ્યા બાદ શુદ્ધોદક સ્નાન કરાવું.
ગંગા સિંધુ સરસ્વતી ચ યમુના ગોદાવરી નર્મદા કાવેરી સરયૂ મહેન્દ્ર તનયા ચરમણવતી વેદિકા ક્ષિપ્રા વેત્રવતી મહાસુર નદી ખ્યાતા ગયા ગંડકી પૂર્ણા પૂર્ણ જલેન સમુદ્ર સહિતા સ્નાનમ સદા મંગલમ.
વસ્ત્ર.
દિગંબર નમસ્તુભ્યં ગજાજીદધરાય ચ વ્યાઘ્રચર્મોત્તરીયાય વસ્ત્રયુગ્મં દદામ્યહં.
ઓમ ઉમા મહેશ્વરાભ્યાં નમઃ. વસ્ત્રોપવસ્ત્રં સમર્પયામિ. ઉમા મહેશ્વરને વસ્ત્ર અર્પણ કરવા. યજ્ઞોપવી.
ચરાચર જગદરત્ન પ્રોતસૂત્ર ધરાયતે નાગયજ્ઞોપવીતાય યુપવીતં દદામ્યહં.
ઓમ ઉમા મહેશ્વરાભ્યાં નમઃ.
યજ્ઞોપવીતં સમર્પયામિ.
ઉમા મહેશ્વરને યજ્ઞોપવીત અર્પણ કરવા. આભૂષણ.
સમષ્ટિ વિદ્યાનગરીનાથ નાગ વિભૂષણ ગૃહાણ ભૂષણમ શંભો શરણાગત વત્સલ.
ઓમ ઉમા મહેશ્વરાભ્યાં નમઃ. આભૂષણમ સમર્પયામિ. ઉમા મહેશ્વરને આભૂષણ અર્પણ કરવા. શિવજીને સ્ફટિક, રુદ્રાક્ષ, મોતી વગેરેની માળા તથા પાર્વતીજીને સૌભાગ્યના સર્વ આભૂષણો અર્પણ કરવા. સુગંધ દ્રવ્ય.
ઓમ ત્ર્યંબકમ યજામહે સુગંધિમ પુષ્ટિવર્ધનમ ઉર્વારુકમિવ બંધનાત मृत्योर्मुक्षी यमामृतात्। ॐ उमामहेश्वराभ्यां नमः। सुगन्धद्रव्यं समर्पयामि। उमा महेश्वर ने अत्तर वगैरह सुगंधी द्रव्य अर्पण करवा। भस्म अग्निहोत्र समुद्भूतम् विरजा होम पावितम् गृहाण भस्म हे स्वामिन् भक्तानां भूतिदायक। ओम उमा महेश्वराभ्याम नमः। भस्मं समर्पयामि। उमा महेश्वर ने भस्म अर्पण करवा। गंध नमः सुगंध देहाय यवंद्य फलदायिने तुभ्यं गंधान प्रदास्यामि चांधकासुर भंजन। ओम उमा महेश्वराभ्याम नमः। गंधम समर्पयामि। उमा महेश्वर ने चंदन अर्पण करमु। अक्षत अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता सुशोभिता मया निवेदिता भक्त्या गृहाण परमेश्वर। उमा महेश्वराभ्याम नमः। अक्षतान समर्पयामि। उमा महेश्वर ने चोखा अर्पण करवा। पुष्प तुरीय वन संभूतम् परमानंद सौरभम् पुष्पम् गृहाण सोमेश पुष्पचाप विभंजन। ओम उमा महेश्वराभ्याम नमः। पुष्पाणि समर्पयामि। उमा महेश्वर ने पुष्पो अर्पण करवा। बिल्वपत्र ओम नमो बिल्मिने च कवचिने च नमो वर्मिने च वरुथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधं त्रिजन्म पापसंहारमेकबिल्वं शिवार्पणं दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनं अघोर पाप संहार मेक बिल्वं शिवार्पणम्। ओम उमा महेश्वराभ्याम नमः। बिल्वपत्रम समर्पयामि। उमा महेश्वर ने बिली पत्र अर्पण करवा। अंग पूजा ओम भवाय नमः पादौ पूजयामि। ओम जगत पित्रे नमः जंगे पूजयामि। ओम रुड़ाय नमः जानुनी पूजयामि। ओम रुद्राय नमः उरु पूजयामि। ओम कालांतकाय नमः कटिम पूजयामि। ओम नागेन्द्र भरणाय नमः नाभिम पूजयामि। ओम स्तव्याय नमः स्तनौ पूजयामि। ओम भवनाशाय नमः भुजान पूजयामि। ओम कालकंठाय नमः कंठम पूजयामि। ओम महेशाय नमः मुखम पूजयामि। ओम लास्यप्रियाय नमः ललाटम पूजयामि। ओम शिवाय नमः शिरः पूजयामि। ओम प्रणतार्तिहराय नमः। ओम सर्वाणि अंगानि पूजयामि। अष्टपुष्प ओम शर्वाय क्षितिमूर्तये नमः। ओम भवाय जलमूर्तये नमः। ओम रुद्राय अग्निमूर्तये नमः। ओम उग्राय वायुमूर्तये नमः। ओम भीमाय आकाशमूर्तये नमः। ओम ईशानाय सूर्यमूर्तये नमः। ओम महादेवाय सोममूर्तये नमः। ओम पशुपतये यजमान मूर्तये नमः। परिवार पूजा ओम उमायै नमः। ओम शंकरप्रियायै नमः। ओम पार्वत्यै नमः। ओम काल्यै नमः। ओम कालिंद्यै नमः। ओम कोटिदिव्यै नमः। ओम विश्वधारिण्यै नमः। ओम गंगादेव्यै नमः। ओम नवशक्तिन् पूजयामि। सर्वोपचारार्थे गंधाक्षत पुष्पाणि समर्पयामि। ओम गणपतये नमः। ओम कार्तिकेयाय नमः। ओम पुष्पदंताय नमः। ओम कपर्दिने नमः। ओम भैरवाय नमः। ओम शूलपाणये नमः। ओम चंडेशाय नमः। ओम दंडपाणये नमः। ओम नंदीश्वराय नमः। ओम महाकालाय नमः।
ओम सर्वान् गणाधिपतान् पूजयामि, सर्वोपचारार्थे गंधाक्षत पुष्पाणि समर्पयामि, ओम अघोराय नमः, ओम पशुपतये नमः, ओम शर्वाय नमः, ओम विरूपाक्षाय नमः, ओम विश्वरूपिणे नमः, ओम त्र्यंबकाय नमः, ओम कपर्दिने नमः, ओम भैरवाय नमः, ओम शूलपाणाय नमः, ओम ईशानाय नमः, एकादश रुद्रान् पूजयामि, सर्वोपचारार्थे गंधाक्षत पुष्पाणि समर्पयामि, सर्व उपचारार्थे सुगंधी द्रव्य तथा पुष्प तथा अक्षत पद्रावा सौभाग्य द्रव्य हरिद्राम कुमकुमम चैव सिंदूरम कज्जलान्वितम् सौभाग्य द्रव्य संयुक्तम गृहाण परमेश्वर, ओम उमा महेश्वराभ्याम नमः, सौभाग्य द्रव्याणि समर्पयामि, उमा महेश्वर ने अबील गुलाल सिंदूर वगैरह सौभाग्य द्रव्य अर्पण करवा। धूप धराधर सुतानाथ दुर्जटे धवला प्रभ धूपमाग्रापयामीश दशांगम गुग्गुलान्वितम्, ओम उमा महेश्वराभ्याम नमः, धूपम अग्रापयामि, उमा महेश्वर ने अगरबत्ती वगैरह धूप अर्पण करवा। दीप साज्यवर्ती युतम दीपम सर्वमंगलकारकम् समर्पयामि पश्येदं सोम सूर्याग्निलोचन, ओम उमा महेश्वराभ्याम नमः, दीपम दर्शयामि, उमा महेश्वर ने दीवानो दर्शन कराओ। नैवेद्य ओम तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। नैवेद्यं षडरसोपेतं विशाषन् कृतान्वितं मधुक्षीरापुपयुक्तं गृह्यतां सोमशेखर, ओम उमा महेश्वराभ्यां नमः, नैवेद्यं निवेदयामि, यस्य स्मरणमात्रेण सफला सन्ति सत्क्रियाः तस्य देवस्य प्रीत्यर्थम् इदं ऋतु फलार्पणम्। उमा महेश्वराभ्यां नमः, नाना ऋतु फलानि समर्पयामि, उमा महेश्वर ने ऋतु प्रमाणेना जुदा जुदा सुंदर फल अर्पण करवा। पछी ग्रास मुद्रा कोळियो भरावानी मुद्रा थी पांच वखत जमाडवा। ओम प्राणाय स्वाहा, ओम अपानाय स्वाहा, ओम व्यानाय स्वाहा, ओम उदानाय स्वाहा, ओम समानाय स्वाहा, ओम उमा महेश्वराभ्याम नमः, आचमनीयम जलम समर्पयामि, पूर्वापोषणम समर्पयामि, उमा महेश्वर ने नमस्कार, आचमनी माटे अने जड़पान करवा माटे हस्त प्रक्षालन माटे जड़ अर्पण करूं। ओम उमा महेश्वराभ्याम नमः, मतिहे पानीयम समर्पयामि, नैवेद्यान्ते आचमनीयम समर्पयामि, उत्तरा पोषणम समर्पयामि, हस्त प्रक्षालनम समर्पयामि, मुख प्रक्षालनम समर्पयामि। तांबूल नागवल्ली दलै पुंगै नाना चूर्णैश्च संयुतम् नागेन्द्रहार तांबूलौ मुखामोदं च गृह्यताम्, ओम उमा महेश्वराभ्याम नमः, मुख शुद्ध्यर्थं तांबूलं समर्पयामि। दक्षिणा धनदाधिपदेवेश दक्षिणा द्रव्यमुत्तमम् यथा शक्तिर्मया दत्तं गृह्यतां वृषभध्वज, ओम उमा महेश्वराभ्यां नमः, सांगता सिद्ध्यर्थं हिरण्यगर्भं दक्षिणां समर्पयामि। निराजन भगवानी आरती उतारवी। क्षमस्व देव देवेश क्षमस्व भुवनेश्वर तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे। मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर यदपूजितं मया देव परिपूर्णं तदस्तु मे। यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर। असारे संसारे निज भजन दूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितं मदन्य को दीन स्तव कृपण रक्षाति निपुण स्वदन्य को वा मे त्रिजगति शरण्यः पशुपदे। अन्यथा शरणं नास्ति त्वमेव शरणं मम तस्माद् कारुण्यभावेन रक्ष मां परमेश्वर। गतं पापं गतं दुःखं गतं दारिद्र्यमेव च आगता सुखसम्पत्तिः पुण्याञ्च तव दर्शनात्। अनेन कृतपूजाकर्मणा श्री साम्ब सदाशिव प्रियन्ताम्।